नारायण सूक्तम।
ॐ सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवं विश्वं नारायणं देवमक्षरं परमं पदम् विश्वतः परमान्नित्यं विश्वं नारायणगुं हरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पथिं विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं परायणम्।
आ ब्रह्मांड साचेज सत्यरूपी पुरुष छे। आ स्वयं प्रकाशित दैवी शक्ति आधारित छे के जेने घणा मस्तक अने घणी आँखों छे। ते ब्रह्मांड मा आनंद आपनार छे अने ब्रह्म स्वरूपी छे जे मानवताना अधिपति अने कारणभूत छे। तेना स्वरूप घणा देवों मा छे। ते अविनाशी छे। ते सर्वाधिपति अने रक्षक छे। जगत थी सर्वोपरि छे। ते अनंत अने सर्वव्यापी छे। ते मानवतानु ध्येय छे। ते पाप अने अज्ञानना नाशक छे। ते ब्रह्मांडना पालक अने हृदयाधिपति छे। ते स्थायी अत्यंत शुभकारक अने अचल छे। ते मानव मा तेना आधार माटे समाया छे। प्राणियों माटे सर्वोत्तम तरीके ओळखाया छे। ते ब्रह्मांड मा व्यापक छे अने ते अंतिम ध्येय छे।
नारायण परो ज्योतिरात्मा नारायणः परः नारायण परं ब्रह्मतत्त्वं नारायणः परः नारायण परो ज्ञाताज्ञानं नारायणः परः।
नारायण ये ब्रह्म तरीके सर्वोत्तम सत्य अस्तित्व छे। नारायण सर्वोत्तम स्वरूप छे। नारायण सर्वोत्तम ज्योति छे। नारायण अनंत स्वरूपी छे।
यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिष्टतत् सर्वं व्याप्य नारायणस्थितः।
आ जगत मा जे बधु ग्रहण शक्ति थी अथवा लोकवायका थी जाण्यू छे ते बधुज नारायण द्वारा अंदर तेमज बहार फैलायेलू छे।
अनंतमव्ययं कविगुं समुद्रेन्दं विश्वशंभुवं पद्मकोश प्रतीकाशगुं हृदयं चाप्यथो मुखम्।
दरेक सर्वोत्तम ईश्वर के जे अमर्यादित छे, अचल छे, सर्वज्ञाता छे, जगत मा आनंद नु कारण छे, जे पोताना हृदय मा समायेलू छे, एना ध्यान माटे हृदय ज योग्य स्थान छे। आ हृदय नी सरखामणी अधोमुख अर्थात ऊंधू एवा कमळनी कळी साथे करी शकाय।
अधोनिष्ट्यावितस्त्यान्ते नाभ्यामुपरितिष्ठते ज्वालमालाकुलं भाते विश्वस्यायतनं महत्।
हृदय जे एक आंगुल जेटलू नाभि ऊपर छे ते ब्रह्मनु निवास छे। त्यां सर्वोत्तम तेज छे।
सन्ततगुं शिलाभिस्तुलम्बत्याकोशसन्निभम् तस्यान्ते सुशिरगुं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्।
કમળની કળીના જેવું અધોમુખ લટકતું હૃદય રક્તવાહિનીથી ઘેરાયેલું છે, તેમાં સૂક્ષ્મ અવકાશ છે, સુષુમ્ણા તેમાં સર્વસ્વ સ્થાપિત છે, તે સર્વનો આધાર છે।
तस्य मध्ये महानग्निर्विश्वार्चर्विश्वतो मुखः स्वोग्रभुग्विभजन् तिष्ठन्नाहारमजनः कविः त्रियगोर्ध्वमधश्वाजीरश्मयस्तस्य सन्तता सन्तापयति स्वन्देहमापाततलमस्तकः तस्य मध्ये वह्निशिखा अणीयोर्ध्वाभ्यवस्थितः नीलतो यदमध्यस्थाद्विद्युल्लेखे बभास्वरा नीवारशोकवत्तन्नीपीताभास्वत्यणोपमा।
एना मध्यमा हृदय अथवा सुषुम्णामानी सांकड़ी जग्यामा अविनाशी सर्वज्ञानी सर्वमुखी महाअग्नि रहेलो छे के जेनी ज्वालाओ बधी बाजुए पथरायेली छे अने जे एने धरायेला अन्न ने पचावे छे अने जे आपना संपूर्ण शरीर ने तलिये थी मस्तक सुधी उष्णता आपे छे। आ अग्नि जे आखा शरीर में व्याप्त छे एना मध्य में અગ્નિની જીવવા ચમકતા સોનાની જેમ રહેલી છે, જે વર્ષાના વાદળમાં ઝબૂકતી વીજળી જેવી ચમકે છે, જે ડાંગરના છોડા જેવી પાતળી લાગે છે, એ સાચે જ સર્વોત્તમ છે અને અવર્ણનીય છે।
तस्याश्रिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म सशिवः स हरिश्चेन्द्रः सोऽक्षरः परमस्वराट्।
परमात्मा એ જ્વાળાઓની મધ્યમાં રહેલા છે, આમ ભલે મર્યાદિત છે છતાં તેઓ ચતુર્મુખી, જેમ કે વિશ્વના રચયિતા બ્રહ્મા, શિવ, વિષ્ણુ, ઇન્દ્ર છે, એ સર્વોત્તમ સ્વયં પ્રકાશિત પવિત્ર ચૈતન્ય છે, જે બ્રહ્માંડની નિર્મિતિનું ભૌતિક અને કાર્યક્ષમ કારણ છે।
नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्।
અમે નારાયણનું ધ્યાન કરીએ છીએ, વાસુદેવની આરાધના કરીએ છીએ, તે વિષ્ણુ અમારી બુદ્ધિને શુભ તથા યોગ્ય પ્રવૃત્તિઓ તરફ દોરે।
શાંતિ શાંતિ।
શરીર, મન અને આત્મા શાંત થાઓ।